इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी गयानायाः सर्वोच्च राष्ट्रिय सम्मानेन दि ऑर्डर ऑफ एक्सीलेंस इत्यनेन सम्मानितो जातः। असौ प्राप्त सम्मानं समग्र भारतीयेभ्यः समर्पितवान्। प्रधानमन्त्री मोदी अद्य सायंकाले जॉर्जटाउन नगरे गयानायाः संसदं सम्बोधयिष्यति। रक्षामन्त्री राजनाथ सिंहः उक्तवान् यत् दुर्बोधगतानां अन्ताराष्ट्रिय समस्यानां समाधानार्थं भारतेन सर्वदा संवादः एव समर्थितः इति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः नवदिल्ल्यां डॉ हरेकृष्ण महताब इत्येतस्मै श्रद्धाञ्जलिम् अददात्। तस्य 25th जन्मजयन्त्यवसरस्य सम्माने विशेषस्य स्मारकपत्रस्य एकस्याः मुद्रायाः च विमोचनम् अपि जातम्। अपि च आईसीसी इत्येतस्य पुरुषाणां T20 अन्ताराष्ट्रिय क्रीडक शीर्षाङ्के भारतस्य हार्दिक पाण्ड्याः ऑलराउण्डर इत्येतस्यां नवीनतम श्रेण्यां प्रथमस्थानं पुनः प्राप्तवान्। इदानीं वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अद्य गयानायाः सर्वोच्च राष्ट्रिय सम्मानेन दि ऑर्डर ऑफ एक्सीलेंस इत्यनेन सम्मानितो जातः। तस्मै सम्मानमिदं तस्य विकासशीलदेशानाम् अधिकाराणां वैश्विकमञ्चेषु समर्थनाय वैश्विकसमुदायाय च अद्वितीयसेवाः भारतगयानादेशयोः च सम्बन्धान् प्रबलीकर्तुं प्रदत्तम् इति। गयानायाः राष्ट्रपतिः डॉ इरफान अली इत्येषः गयाना स्टेट हाउस इत्यत्र श्रीमोदिने सम्मानमिदं प्रदत्तवान्। सम्मानं प्राप्य श्रीमोदी डॉ इरफान अली इत्यस्मै धन्यतावचांसि समर्पितवान्। असौ प्राप्त सम्मानं समग्र भारतीयेभ्यः उभयोः देशयोः मध्ये निहितेभ्यः इतिवृत्तगतेभ्यः सम्बन्धेभ्यः च समर्पितवान्। असौ सबलं प्रतिपादितवान् यत् तस्य इयं गयाना यात्रा भारत गयाना देशयोः मैत्रीपूर्ण सम्बन्धम् इतोऽपि सुदृढीकरणदिशि भारतस्य सतत प्रतिबद्धतायाः प्रमाणमपि अस्ति। प्रधानमन्त्री श्रीमोदी अद्य सायं जॉर्जटाउन नगरे गयानायाः संसदम् अपि सम्बोधयिष्यति। रक्षामन्त्री राजनाथसिंहः अद्य उक्तवान् यत् दुर्बोधगतानाम् अन्ताराष्ट्रिय समस्यानां समाधानार्थं भारतेन सर्वदा संवादः एव समर्थितः इति। लावोसदेशस्य वियेनतियाने नगरे 11th आसियानदेशस्य सम्मेलनं सम्बोधयता मन्त्रिणा कथितं यत् मुक्तसंवादस्य शान्तियुतवार्तालापस्य च एषा प्रतिबद्धता सीमाविवादात् आरभ्य व्यापारसमन्वयेभ्यः यावत् अन्ताराष्ट्रियप्रतिसन्धिं प्रति भारतस्य समीकरणे स्पष्टम् अस्ति इति। असौ अग्रे अवदत् यत् भारतं वैश्विकसमस्यानां वास्तविकं दीर्घकालिकं च समाधानं तदा एव साधयितुं शक्नोति यदा राष्ट्राणि परस्परं दृष्टिकोणस्य आदरं कृत्वा रचनात्मकरूपेण संलग्नानि भवन्ति इति। श्रीसिंहः अवदत् यत् विश्वस्य विभिन्नेषु भागेषु प्रचलन्तान् संघर्षान् अन्ताराष्ट्रियव्यवस्थायाः च समाह्वानानि च विचार्य ते लावोसदेशे समागच्छन्ति इति प्रासंगिकमस्ति। असौ अग्रे अवदत् यत् लावोसदेशः बहुकालात् अहिंसायाः शान्तेः च बौद्धिक सिद्धान्तान् आन्तरिकीकृतवान् इति। रक्षामन्त्री पुनः उक्तवान् यत् भारतं भारत प्रशान्त प्रदेशे शान्तेः समृद्धेः च प्रोत्साहने नौपरिवहनस्य विमानयानस्य च स्वातन्त्र्यस्य निर्विघ्नस्य विधिसम्मतस्य वाणिज्यस्य अन्ताराष्ट्रियविध्याः पालनस्य च पक्षे वर्तते इति। ऋतुदशा परिवर्तनम् आलक्ष्य श्रीसिंहः वैश्विक सहभागित्वस्य अवधारणायै बलं प्रदत्तवान्।
यह क्लाइमेट चेंज और चक्रों की थ्रेड के बीच के इंटर लिंकेजेस को गहराई से समझने की आवश्यकता को भी उजागर करता है। यह दर्शाता है कि एडेनम प्लस क्लाइमेट चेंज के मुद्दे पर एक इफेक्टिव डिफेंस स्ट्रेटजी विकसित करने के लिए एक आइडियल फोरम है।
राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्याम् उत्कल केसरी उपाधिना विभूषिताय डॉ हरिकृष्ण महताब इत्येतस्मै श्रद्धाञ्जलिम् अददात्। डॉक्टर हरिकृष्ण महताबस्य पञ्चविंशत्यधिकैकशततमस्य जन्मवार्षिकस्य उत्सवस्य उद्घाटनं कुर्वती राष्ट्रपतिः मुर्मुः डॉक्टर महताबस्य सम्मानार्थं विशेषस्य स्मारकपत्रस्य मुद्रायाः च विमोचनस्य अवसरे हर्षं प्रकटितवती। अनया अत्रावसरे निगदितं यत् डॉक्टर हरिकृष्ण महताबस्य लेखनैः भाषणैः च सा सर्वदा प्रेरिता च भवतीति।
सामाजिक राजनैतिक सांस्कृतिक विषयों पर महताब के लेखन से उनकी सोच की मौलिकता का पता चलता था। बाद में उन्हें साहित्य अकादमी द्वारा उनके गांव मजलिस के लिए सम्मानित किया गया। डॉक्टर महताब अपने छात्र जीवन से ही स्वतंत्रता संग्राम के प्रति आकर्षित हुई थी।
प्रियाः श्रोतारः, संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज़ ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। कर्मचारी भविष्यनिधि संगठनेन इत्यनेन अस्मिन् वर्षे सितंबर मासावधौ एव एकाशीत्युत्तराष्टदशलक्षस्य सदस्यानां शुद्ध संवर्धितं पंजीकरणं कृतम्। यद्धि गतवर्षस्य समान कालखण्डात् 33.9% वृद्धिं प्रदर्शयति। श्रम मन्त्रालयेन उक्तं यत् सदस्यानां वृद्धौ कारणभूताः वर्धमान वृत्त्यवसराः, कर्मचारी लाभानां विषये जागरूकतायाः वर्धनम्, ईपीएफओ संस्थायाः प्रभावी प्रसार उपक्रमाः च भवितुम् अर्हन्ति। एतेषु सदस्येषु 18-25 वयोदेशीयाः आधिक्यं भजन्ते, यतोहि प्रतिशततायां तेषां संख्या 69% वर्तते। प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् मासे 25 दिनांके नवदिल्लीनगरस्य भारतमण्डपे आईसीए ग्लोबल कोऑपरेटिव इति सम्मेलनस्य उद्घाटनं करिष्यति। अद्य पत्रकारसम्मेलनं सम्बोधयन् सहकारिता मन्त्रालयस्य सचिवेन डॉ आशीषकुमारभूटानी इत्यनेन उक्तं यत् भारते प्रथमवारं वैश्विकसहकारसम्मेलनस्य महासभायाः च आयोजनं क्रियते। असौ अवदत् यत् श्रीमोदी अन्ताराष्ट्रिय सहकारी वर्षस्य 2025तमस्य स्मारकमुद्रां प्रख्यापयिष्यति। षड्दिवसीय सम्मेलनस्य विषयो सहकारिणः सर्वेषां कृते समृद्धिं निर्मान्ति इति वर्तते। 55तमस्य भारतीयान्ताराष्ट्रिय चलचित्र महोत्सवस्य आयोजनं सोत्साहं पूर्णरूपेण च प्रचलति, यत्र प्रदर्शनानि कार्यक्रमाश्च आयोज्यन्ते। अद्य विविधविधानां भूयोऽपि 40 चलचित्राणि प्रदर्श्यन्ते, येषु भारतीयचलचित्रस्य उत्तमानि चित्राणि सम्मिलितानि वर्तन्ते। भारतीय पैनोरमाखण्डः अपि आधिकारिकरूपेण स्वीयेन उद्घाटनसमारोहेन च सह आरभत, यस्मिन् चितानां 25 फीचर इति चलचित्राणां, 20 च नॉन फीचर इत्येतेषां चलचित्राणां च प्रदर्शनस्य कृते मञ्चः तत्र निर्मितः। प्रख्याताः चलचित्रजगतः प्रमुखजनाः प्रमुखवर्गाणां समूह चर्चाणां च माध्यमेन प्रेक्षकैः सक्रियतया संलग्नाः भवन्ति, चलचित्रनिर्माणकलायाः विषये बहुमूल्य अन्तर्दृष्टिं प्रदास्यन्ति। एतदतिरिच्य फिल्म बाजार इत्येतस्य 18तमं संस्करणमपि क्रियाकलापैः परिपूरितमस्ति, यद्धि महत्वाकांक्षी चलचित्र निर्मातृणां स्थापित उद्योग वृत्तिकर्तॄणां च मध्ये सम्पर्कस्य सहयोगस्य च गतिशील केन्द्ररूपेण कार्यं समाचरति। प्रसारभारत्याः अध्यक्षः नवनीत कुमार सहगलः अद्य प्रावोचत् यत् प्रसारभारत्याः नवीनस्य ओटीटी प्लेटफॉर्म इत्येतस्य अनावरणस्य उद्देश्यं न केवलं डिजिटल स्पेस इत्यत्र समाजोचित सामग्रीणां संकलनम्, अपितु बालाः युवानः च समेत्य समाजस्य समेभ्यः वर्गेभ्यः सामग्री संकलनमपि वर्तते। राष्ट्रिय प्रसारकस्य प्रसारभारत्याः ओटीटी प्लेटफॉर्म वेब्स इत्येतस्य अनावरणस्य एकदिवसानन्तरं वार्ताहरान् सम्बोधयन् श्री सहगलः सूचितवान् यत् अस्मिन् अनुप्रयोगे दूरदर्शनस्य पूर्ववर्तिनां समेषां कार्यक्रमाणां सामग्र्यः भविष्यन्ति। आईसीसी इत्येतस्य पुरुषाणां T20 अन्ताराष्ट्रिय क्रीडक शीर्षाङ्के भारतस्य हार्दिक पाण्ड्याः ऑलराउण्डर इत्येतस्यां नवीनतम श्रेण्यां प्रथमस्थानं पुनः स्वीकरोत् इति वार्ताः।